ॐ शुक्लां वरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिश्शान्तिश्शान्तिः। श्रीगुरुभ्यो नमः।
धन्यवादः भगिनि। सर्वेभ्यो नमः। अस्माकं प्रवर्तमानः विषयः किमपि नास्ति, यत् सम्बोधनम् इति आसीत् तत् समापितवन्तः। अपि तस्य पूर्वं तत्र तृतीयविभक्ति अतः यतः तत्सर्वं वयं कृतवन्तः। इदानीम् अग्रे गच्छामः। तत्र गीतासोपने प्रथमभागे अव्ययानि इति नूतनविषयः अस्ति, तत्र पुटसङ्ख्या 185। तत्र कथा अस्ति।
अहं लक्ष्मी। नमस्कारः
लक्ष्मी भगिनी। नमस्कारः भगिनी। नमस्कारः भगिनी, स्वागतम्। अस्तु, तत्र पेज् 185 मध्ये कथा अस्ति, तदनन्तरम् अभ्यासाः अपि सन्ति अव्ययानि इति विषये। अस्तु अस्तु, तर्हि तत्र आरम्भं कुर्मः। तत्र अस्तु, मधुसूदन महोदय, भवान् पठति वा तत्र?
आम् महोदय, पेज् नम्बर्
185 महोदय।
आम् महोदय। सर्वभङ्गः एतां कथाम् उच्चैः पठत। मत्स्यदेशस्य महाराजः विराटः पाण्डवाः अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण आसन्। त्रिगर्तनरेशः सुशर्मा विराटराजस्य गोसम्पत्तिं अपकृत्यं तत्र आगच्छति। विराटः युद्धार्थं सन्नद्धः भवति। पाण्डवाः अपि तेन सह युद्धार्थं गच्छन्ति। पाण्डवानां साहाय्येन विराटः युद्धे जयं प्राप्नोति। सः विकर्तुं गच्छति।
हा, समीचीनं महोदय, धन्यवादः। अस्तु, अग्रे तत्र वेदा भगिनी पठति वा अग्रे?
अत्रान्तरे कौरवाः
सत्यं भगिनि,
अत्रान्तरे कौरवाः ससैन्यं विराटनगरम् आगत्य गोधनम् अपहरन्ति। तदा गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति। उत्तरः वदति, यद्यपि अहं युद्धे कुशलः तथापि इदानीं न गच्छामि, यतः इदानीं मम सारथिः नास्ति। यदि सारथिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि। दुर्योधनं भीष्मं कर्णं द्रोणं च विद्राव्य गोधनं
रक्षिष्यामि समीचीनं,
रक्षिष्यामि इति
समीचीनं। हा, धन्यवादः भगिनी। अस्तु अस्तु, अग्रे श्रीप्रिया भगिनी पठति वा?
आं महोदय। तदा सैरन्ध्री वदति, अत्र बृहन्नला या अस्ति, पूर्वं सा अर्जुनस्य सारथिः आसीत्, तां नय। ततः सा एव बृहन्नलां तत्र आनयति। बृहन्नला वदति, गीतं नृत्यं वाद्यं वा करिष्यामि, सारथ्यं कथं करिष्यामि इति। उत्तरः वदति, गायकः नर्तकः च अनन्तरं भव, इदानीं तु सारथिः भव इति।
हा, समीचीनं भगिनि। अस्तु, अग्रे उषा भगिनि।
आं महोदय। ततः बृहन्नला रथम् आरुह्य अश्वं प्रेरयति, किन्तु युद्धभूमौ विशालं कुरुसैन्यं दृष्ट्वा उत्तरः हतोत्साहः भवति. सः वदति, मम पिता त्रिगर्तदेशं गतवान् अस्ति, सर्वमपि सेनं सह नीतवान् अस्ति. अहम् एकः बालः एतान् अस्त्रकोविदान् प्रतिरोधुं न शक्नोमि. बृहन्नले निवर्तस्व इति बृहन्नला वदति, स्त्रीणां पुरतः बहु जल्पसि, इदानीं कथं युद्धं न करोषि? यदि न युध्यसे तर्हि सर्वे प्रहसिष्यन्ति इति.
धन्यवादः भगिनि. तावत्पर्यन्तम् अस्तु. अग्रे गीताञ्जलि भगिनी पठति वा?
आम् महोदय. ये केऽपि हसन्तु, मम चिन्ता नास्ति इति उक्त्वा उत्तरः रथात् अत अवतीर्य अधावत्. ब्रह्मनला तु एषः धर्मः न, क्षत्रियः कदापि पलायनं न करोति, युद्धमेव श्रेयः न पलायनम् इति तम् अनुधावति. केशेषु गृह्णाति च? तदा उत्तरः वदति, तुभ्यं शतं सुवर्णनाणकानि ददामि, अष्टं मणीन् ददामि, उत्तमं रथम् अश्वान् गजान् च ददामि, मां मुञ्च इति. मास्तु चिन्ता, आवाम् अग्रे गच्छाव, त्वं मम सारथिः भव, अहं युद्धं करिष्यामि इति उक्त्वा बृहन्नला तं रथम् आरोपयति.
रथम् आरोपयति, समीचीनं भगिनि. नरेश् महोदय नमस्कारः. पेज् 185-186 मध्ये स्मः
महोदय. कुत्र अस्ति?
पेज् 185 भगिनि, गीतासोपने प्रथमभागे. लक्ष्मी भगिनी प्राप्तवती वा?
न प्राप्तवती.
पेज् 185 इदानीं 186 तत्र इदानीम् आरम्भं करणीयमस्ति. अस्तु, अग्रे ललिता भगिनी पठति वा?
पठामि महोदय. ततः तौ श्मशानभूमिं गच्छतः, तत्र शमीवृक्षे पाण्डवैः पूर्वं रक्षितानि आयुधानि गृह्णीतः. तदा उत्तरः जिज्ञासया, को भवान् इति बृहन्नलां पृच्छति. बृहन्नला, अहम् अर्जुनः, युधिष्ठिरः, भीमः, नकुलः, सहदेवश्चापि तव पितुः आश्रिताः एव सन्ति इति वदति. तदा उत्तरः धैर्यं प्राप्नोति. ततः प्रवृत्ते युद्धे अर्जुनः भीष्मद्रोणकर्णादिसहितान् कौरवान् पराजित्य विराटराजस्य गोदनं रक्षति. तावता पाण्डवानाम् अज्ञातवासः अपि समाप्तः भवति. विराटराजः स्वपुत्र्याः उत्तरायाः विवाहम् अर्जुनस्य पुत्रेण अभिमन्युना सह कारयति.
इति समीचीनं भगिनि, धन्यवादः. अस्तु, अस्तु, तर्हि इदानीं तत्र एषा कथा तु प्रसिद्धा एव, वयं सर्वे जानीमः इति मन्ये. तत्र उत्तरः अस्ति, अपि तस्य सहोदरी उत्तरा या अस्ति सा अभिमन्योः पत्नी अपि, तदपि वयं जानीमः, प्रसिद्धा कथा अस्ति. किन्तु तत्र अभियानी इति विषये इदानीम् एषा कथा स्वीकृता अस्ति. तत्र अनेकानि अभियानि सन्ति इति कृत्वा. अस्तु, तर्हि इदानीं तत्र पङ्क्तिशः पश्यामः किं किम् अस्ति इति, अपि तस्य विवरणं कुर्मः. अस्तु, तर्हि तत्र लक्ष्मीभगिनी आरम्भं कर्तुम् इच्छति वा?
अस्तु महोदय. मत्स्यदेशस्य महाराजः विराटः. मत्स्यदेशस्य महाराजा
विराटः.
पाण्डवाः अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण आसन्. कः आसन्? पाण्डवाः आसन्. ते स्वस्य रूपं त्यक्त्वा प्रच्छन्नरूपेण तत्र गतवन्तः.
हा, समीचीनं भगिनि. हा, तत्र गतवन्तः, तत्र विराटराजं गतवन्तः. तत्र आस्थाने तत्र अनेका तत्र प्रत्येकः आश्रयः स्वीकृत्य आश्रयं स्वीकृत्य तत्र युधिष्ठिरः एकम् अपि भीमः एकम् इति तत्र रूपं नूतनरूपं रूपेण तत्र
गतवन्तः.
स्वीकृत्य उद्योगमपि स्वीकृत्य तत्र गतवन्तः. समीचीनं. हा, तत्र अज्ञातवाससमये अपि विराटराजस्य आस्थाने, तत्र एकः समयः सप्तमी, अन्यत् सप्तमी अस्ति देशः, प्रदेशः इति सप्तमी.
आस्थाने, अज्ञातवाससमये
अपि विराटराजस्य आस्थाने. हा, अपि कीदृशरूपेण तत्र आसन् अथवा गुप्तरूपेण अपि वक्तुं शक्नुमः. समीचीनं. हा, गुप्तरूपेण तत्र गतवन्तः. तत्र गुप्त इत्युक्ते तत्र कोऽपि न जानाति तत्र सन्ति इति, किन्तु सर्वे द्रष्टुं शक्नुवन्ति, किन्तु तत्र यद्रूपम् अस्ति तद्रूपं वस्तुतः नास्ति, तावदेव. अस्तु, प्रच्छन्नरूपेण. अस्तु, अग्रे भगिनि.
त्रिगर्तनरेशः सुशर्मा विराटराजस्य गोसम्पत्तिम् अपहर्तुं तत्र आगच्छति.
तत्र नरेशः इत्युक्ते राजा.
नरेशः राजा. सुशर्मा, त्रिगर्तनरेशः,
तस्य नाम अस्ति महाराजस्य नाम सुशर्मा. सः किम् अपहर्तुं तत्र आगच्छति?
तत्र गोसम्पत्तिं.
कस्य?
विराटराजस्य गोसम्पत्तिम् अपहर्तुं तत्र आगच्छति.
हा, सः आगच्छति केवलम् एकाकी न, तत्र सैन्येन सह सः आगच्छति. हा, अग्रे.
विराटः युद्धार्थं सन्नद्धः भवति. युद्धं कर्तुं सन्नद्धः अभवत्.
सन्नद्धः इत्युक्ते सिद्धः.
सिद्धः.
ओ, अस्तु, युद्धं करणीयं वा? अस्तु, अहमपि आगच्छामि, अहं कर्तुं शक्नोमि इति सः अपि सिद्धः भूत्वा सः गच्छति. अस्तु,
सः अपि सिद्धः भवति.
सिद्धः.
पाण्डवाः अपि तेन सह युद्धार्थं गच्छन्ति.
पाण्डवाः अपि
विराटराजः
अस्ति चेत् विराटराजेन सह इति
राजेन सह युद्धं कर्तुं पाण्डवाः अपि तत्र गच्छन्ति.
तेन सह ते अपि गच्छन्ति. हा, अग्रे.
पाण्डवानां साहाय्येन विराटः युद्धे जयं प्राप्नोति. विराटराजः पाण्डवानां साहाय्येन युद्धे जयं प्राप्तवान्.
हा, अस्तु, तत्र प्राप्नोति युद्धे जयं प्राप्नोति. कः प्राप्नोति?
विराटराजः.
कर्तृपदं विराटराजः. केन जयं प्राप्नोति? माध्यमं किं?
युद्धे.
न न केन केन
प्राप्नोति
जयम् इति
पाण्डवानां साहाय्येन
हा पाण्डवानां साहाय्येन इति तत्र माध्यमं भवति तेन माध्यमम् अस्ति अपि कर्मपदं किमस्ति
जयं वा
जयं जयमेव प्राप्नोति जयं प्राप्नोति
जयं प्राप्नोति
युद्धे जयं प्राप्नोति समीचीनं भगिनि हा अस्तु अग्रे अन्तिम
सः त्रिगर्तं गच्छति
हा सः त्रिगर्तदेशं युद्धानन्तरं जयं प्राप्तवान् तदनन्तरं सः तत्र प्रत्यागच्छति वा न सः न प्रत्यागच्छति किन्तु त्रिगर्तं देशमेव त्रिगर्तदेशं सः गच्छति समीचीनं भगिनि हा अस्तु हा अस्तु अग्रे वेद भगिनि
हा महोदय अत्रान्तरे कौरवाः ससैन्यं विराटनगरम् आगत्य गोधनम् अपहरन्ति अत्रान्तरे इत्युक्ते अट् दट् टैम्
तस्मिन्नेव समये युद्धः एकत्र युद्धः तत्र प्रचलन् अस्ति अन्यत्र कौरवाः
सैन्येन सैन्यं सह
ससैन्यं ससैन्यम् इति रूपं किम् अस्ति
ससैन्यं सैन्यं सह
तत्र सैन्येन सह सैन्येन सह सैन्येन सह इति अर्थे तत्र ससैन्यं ससैन्यं तत्र सैन्यमपि अस्ति
विराटनगरम् आगतं आगत्य गोधनम् अपहरन्ति
हा अस्तु तत्र वाक्यद्वयं करोतु तत्र आगत्य इति स्थाने
विराटनगरम् आगतम्
आगच्छन्ति आगच्छन्ति
तत्पश्चात् गोधनम् अपहरन्ति
गोधनम् अपहरन्ति तत्र विराटनगरम् आगच्छन्ति तदनन्तरं
गोधनम्
अपहरन्ति 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 समीचीनम्
तदा गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति तदा गवाध्यक्षः इत्युक्ते गौनां संरक्षणं
धेनुः इति जानीमः धेनुः इति सुलभं भवति
गवाध्यक्षः इत्युक्ते
धेनूनाम् अध्यक्षः यः यस्य तत्र किं तत्र
गोशालां निर्वहति
यस्य उत्तरदायित्वम् अस्ति धेनुकानां पालनस्य उत्तरदायित्वं यस्य अस्ति सः गवाध्यक्षः
रक्षणाय राजकुमारम् उत्तरं निवेदयति उत्तरं राजकुमारस्य नाम उत्तरमस्ति
राजकुमारस्य नाम उत्तरः
तं निवेदयति गवाध्यक्षः रक्षाकरो इति
तत्र रक्षतु
इति राजकुमारम् उत्तरं निवेदयति वदति यद्यपि अहं युद्धे कुशलः तथापि इदानीं न गच्छामि अहं युद्धे कुशलः अस्ति परन्तु इदानीं न गच्छामि
तत्र यदा तदा इति नास्ति तत्र यद्यपि तथापि इति अस्ति इत्युक्ते तत्र
यद्यपि
तथापि इति अस्ति तत्र अतः यदि यदा तदा अस्ति चेत् तत्र अर्थः कः अत्र अर्थः कः
यदा तदा इत्युक्ते यदा वृष्टिः भवति तदा अहं न जानामि तत् कालरूप
यदा एकं भवति तत् तदा अन्यत् अपि भवति इति वदामः अस्तु तत्र यदा भवान् आगच्छति तदा वयं गच्छामः इति तत्र यदा तदा इदानीम् अत्र तु किमस्ति यद्यपि अस्ति अपि तथापि इति अस्ति
यद्यपि इत्युक्ते अहं यद्यपि इत्युक्ते लैक् अहं जानामि किद् युद्धं किं करोत् इति अहं जानामि.
कुशलः युद्धे कुशलः अस्ति चेत् वयं किं चिन्तयामः, अस्तु सः युद्धार्थं गच्छति इति. किन्तु सः तत् करोति वा
न,
सः किं वदति, सः
इदानीं न गच्छामि इति.
इदानीं न गच्छामि, हा, तत्र कर्तुं शक्नोमि किन्तु अहं न गच्छामि. युद्धे कुशलः, तत्र अहं युद्धे कुशलः इति अस्ति, तत्र क्रियापदं किम् अस्ति?
कुशलः अस्ति,
हा, कुशलः अस्मि, अस्मि अस्ति, अहम् अस्मि, अहम् अस्मि, कीदृशः अहं, तत्र कुशलः,
कुशलः.
इदानीं कुशलः इति पदस्य
अन्वयः
तत्र किं भवति, तत्र वाक्ये कुशलः, कुशलः अस्मि,
अहं युद्धे कुशलः अस्मि.
कुशलः इति व्याकरणरूपेण तत्र वाक्ये किम् अस्ति, तत्र विशेषणं वा कर्मपदं वा किम् अस्ति?
विशेषणम् अस्ति, विशेषणं
कस्य पदस्य?
अहं कुशलः,
हा, अहं पदस्य विशेषणम्, अहं कुशलः अस्मि. कस्मिन् विषये कुशलः, निपुणः इति अस्ति चेत् तत्र कस्मिन् विषये इति प्रश्नः भवति, अतः तत्र युद्धे कुशलः, युद्धे कुशलः, युद्धे निपुणः इति भवति रूपम्. अहं युद्धे कुशलः, यद्यपि अहं युद्धे कुशलः, तथापि, तथापि किम् इदानीं?
तथापि इदानीं न गच्छामि.
इदानीं तत्र युद्धार्थम् अहं न गच्छामि, न गच्छामि. अस्तु, अग्रे.
यतः इदानीं मम सारथिः नास्ति.
हा, इदानीं तत्र यतः इत्युक्ते कारणं,
कारणं, यतः इदानीं मम सारथिः नास्ति. इदानीं मम सारथि अत्र नास्ति इति कारणेन अहं न जानामि,
अहं न गच्छामि, अहं न गच्छामि. तत्र पूर्णवाक्यं वदतु. इदानीं तत्र यतः स्थाने यतः उपयुज्य, यतः उपयुज्य पूर्णवाक्यं तत्र
यतः उपयुज्य
पूर्णवाक्यं तत् मास्तु. इदानीं यद्यपि इति मास्तु, तत्र यतः इत्युक्ते कारणम्, अतः तत्र कार्यमपि, तत्र एफेक्ट् इति वदामः खलु.
यतः इदानीं मम सारथिः नास्ति, अतः अहं युद्धे न गच्छामि.
हा, तत्र यतः अथवा अतः एकमेव आवश्यकं खलु, चिन्ता मास्तु. अतः तत्र किम् अस्तु, अतः उपयुज्य एव वाक्यं वदतु तर्हि.
इदम् इदानीं मम सारथिः नास्ति, अतः अहं युद्धे अहम् इदानीं न गच्छामि,
युद्धार्थं न गच्छामि, युद्धं कर्तुं, युद्धं कर्तुं न गच्छामि. समीचीनं, हा, समीचीनं.
यदि सारथिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि. दुर्योधनं, भीष्मं, कर्णं, द्रोणं च विद्राव्य यदि सारथिः अस्ति तर्हि, यदि सारथिः अस्ति तर्हि इफ् अण्ड् देन् लैक् कथम् उक्तम्?
यदि तर्हि, हा, यदि तर्हि इत्युक्ते तदेव अस्ति. यदि प्रथम भवति, प्रथमस्थितिः भवति चेत् द्वितीया स्थितिः अपि भवति. तत्र यदि सारथिः मम सारथिः अस्ति तर्हि
अहं युद्धार्थं गमिष्यामि,
हा, युद्धार्थं गमिष्यामि. तत्र कारणं किम् अस्ति, किमर्थं सः युद्धार्थं न गच्छति? सारथिः नास्ति इति कारणेन सः न गच्छति. किन्तु यदि सारथि केवलम् एकः एव कारण, एकमेव कारणं वा अथवा अन्यत् कारणमपि अस्ति वा इति प्रश्ने सः वदति एकमेव कारणम् अस्ति,
सारथि नास्ति,
सारथि नास्ति, केवलं तदेव कारणम्, अन्यत् कारणं नास्ति. यदि सारथिः आसीत् अथवा अस्ति तर्हि,
यदि सारथिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि.
तत्र गमिष्यामि युद्धार्थम् इति स्थाने अन्यत् किं वक्तुं शक्यते?
युद्धाय,
युद्धाय, युद्धाय गमिष्यामि. अपि तत्र गत्वा सः किं करोति?
किं किं
युद्धं गत्वा युद्धार्थं तत्र गत्वा सः किं किं करोति?
युद्धार्थं गत्वा
युद्धार्थं गमिष्यामि इति वदति. तदनन्तरं सः किं वदति?
दुर्योधनं, भीष्मं, कर्णं, द्रोणं च विद्रा.
सत्यं सत्यं. हा तत्र किम् अस्ति तत्र
विद्राव्य विद्राव्य इत्युक्ते के के?
हा तत्र विद्रवति इत्युक्ते पलायनं करोति.
ओ ओके.
विद्रवति विद्रवति इत्युक्ते पलायनं, स्वयमेव पलायनं करोति. एतत् अस्ति निजन्तरूपं. तत्र पठति पाठयति इति अस्ति खलु, तादृशः विद्रवति विद्रावयति, अन्यम् अन्यं तादृशं कारयति.
विद्रव्यस्य
पलायनं कारयति.
पलायनं
सः गच्छति किन्तु अन्यम् अन्य कोऽपि अस्ति तस्य पलायनं कारयति. अत्र कस्य पलायनं कारयति? एषः दुर्योधनस्य, भीष्मस्य, कर्णस्य, द्रोणस्य च. तेषां सर्वेषां पलायनं कारयिष्यामि.
तत्कारणेन गोधनमेव रक्षिष्यामि.
हा गोधनस्य रक्षणं करोमि इति सः वदति. हा इति समीचीनम् अस्तु. तत्र
प्रश्नः, तत्र पलायनं पलाययामि इति भवितुमर्हति वा? पलाययति इति
न जानामि भगिनि. हा तद् न जानामि. तत्र रूपं क्रियापदम् अस्ति खलु, अतः तत्र पलायति अथवा
पलायनं पलाययति.
पलायनं पलायनम् इति अस्ति.
निजन्तप्रयोगमस्ति वा
पलायनं? न न न, तत्र पलायनं कारयति. पलायनं कारयति स्वस्य कस्य इति, अतः तत्र पलायनम् इति तत्र निजन्तरूपम् इति किमपि नास्ति. हा किन्तु तत्र पलायति इति
क्रियापदं भवति चेत्,
क्रियापदम् अस्ति एव पलायनम् इति. तत्र क्रियापदम् अस्ति एव पलायनम् इति. तत्र पलायते इति अस्ति. पलायते पलायते आत्मनिपदिरूपम्. अतः प्रायशः पलाये इति, अहं पलाये इति प्रायः
पलाये
इति.
अस्तु धन्यवादः.
समीचीनं भगिनि, धन्यवादः. अहमपि न ज्ञातवान् पूर्वं तत्र पलायनम् इति बहुवारम् तस्य उपयोगं कृतवान्, किन्तु तत्र क्रियापदं किम् इति न दृष्टवान् पूर्वं. समीचीनं. पलायते इति आत्मनेपदीरूपं, तदपि इदानीं जानामि. अस्तु तत्र भगिनि पिता भगिनि, तत्र किमर्थं विद्राव्य इति अस्ति?
विद्राव्य
अस्ति चेत् किं जानीमः तत्र? किमर्थं कृत्वा तादृशत्वा नास्ति?
विद्राव्य लप् लप् ल्यप् प्रत्यय
ल्यबन्तरूपं. हा ल्यप् तत्र तादृशरूपम् अस्ति चेत् तत्र किम् अस्ति धातु मध्ये? किम् अस्ति
धातु मध्ये? कार्यं कृत्वा
तत्र त्वा, तत्र त्वा अस्ति किन्तु अत्र त्वा नास्ति.
तत्र
गच्छति गत्वा, आगच्छति आगत्य इति अस्ति. तत्र नियमः कः? कुत्र ल्यप् भवति, कुत्र त्वा?
ल्यप् उपसर्ग.
तत्र तावदेव. तत्र वि उपसर्गः अस्ति. तावदेव तावदेव. समीचीनं भगिनि. अस्तु तत्र गोधनं रक्षयिष्यामि. गोधनं किं भवति? कर्मपदम्. अथवा तत्र गोधनं रक्षयिष्यामि इति स्थाने तत्र षष्ठी उपयोगं कर्तुम् इच्छामश्चेत् किं भवति?
गोधनस्य
गोधनस्य
रक्षणं
रक्षणं करिष्यामि
करिष्यामि
इति. समीचीनं भगिनि. अस्तु करिष्यामि इति समीचीनम्. अस्तु धन्यवादः भगिनि. अस्तु अग्रे उषा भगिनि.
आं महोदय.
नमस्कारः.
नमस्ते महोदय.
पेज् 185 मध्ये स्मः भगिनि.
श्रूयते वा महोदय?
श्रूयते भगिनि.
आम् महोदय.
अस्तु उषा भगिनि.
तदा सैरेन्द्री वदति, अत्र बृहन्नला या अस्ति, पूर्वं सा अर्जुनस्य सारथिः आसीत् तां नय
तदा तदा सैरन्ध्री वदति सैरन्ध्री का
सैरन्ध्री वदति सैरन्ध्री द्रौपदी अस्ति
हा सैरन्ध्री द्रौपदी अस्ति हा समीचीनं हा
अत्र बृहन्नला या अस्ति बृहन्नला या अस्ति पूर्वं सा अर्जुनस्य सारथिः आसीत्
तत्र यासा इति रूपं तत्र या तत्र लक्षणम् इति वदामः तत्र सः कः इत्युक्ते तत्र यः अद्य आगतवान् तस्य नाम रमेशः इति तत्र किमपि वक्तुम् इच्छामः कस्य विषये तत्र यः अस्ति सः एव एषः इति अथवा या अस्ति सा एव एतत् कृतवती इति तत्र तादृशरूपम् अस्ति तत्र या गृहनला या अस्ति सा
अर्जुनस्य सारथिः या स्त्रीलिङ्गे अस्ति सा अपि स्त्रीलिङ्गे अतः या सा
हा या सा
या ये याः अस्ति न महोदय सा
सत्यं भगिनि
पूर्वं सा अर्जुनस्य सारथिः अर्जुनस्य षष्टिविभक्त्याम् अस्ति सारथिः सारथिः यः रथं चालयति
तत्र तत्रापि तत्र सारथिः तत्र प्रायशः तत्र
स्त्रीलिङ्गे अस्ति वा महोदय
न पुल्लिङ्गे अस्ति सारथिः तत्र कविशब्दः
परन्तु
तत्र सारथी भिन्ना अस्ति सा अस्ति तत्र तावदेव
विशेषणं न
भवति तत्र सा सारथिः अस्ति अर्जुनस्य सारथिः सा अस्ति अत्र तत्र सारथिः तत्र तस्य पदस्य लिङ्गम् अस्ति पुल्लिङ्गपदम् अस्ति तावदेव
अर्जुनस्य पुंलिङ्गम् अस्ति अर्जुनस्य
भिन्नं हा तत्र अर्जुनस्य भिन्नं तेन कारणेन सारथिः पुल्लिङ्गम् इति नास्ति
न न न महोदय अर्जुनस्य षष्टिविभक्ति पुंलिङ्गे अस्ति सारथिः पुंलिङ्गे अस्ति परन्तु या सा स्त्रीलिङ्गे अस्ति
स्त्रीलिङ्गे अस्ति सत्यं भगिनि समीचीनं
बृहन्नला अपि स्त्रीलिङ्ग एव
बृहन्नला अपि स्त्रीलिङ्गे समीचीनं
आसीत् तां नय ताम् इत्युक्ते स्त्रीलिङ्ग स्त्रीलिङ्ग इत्युक्ते बृहन्नला
न तत्र बृहन्नला इति विभक्ति प्रथमविभक्ति ताम्
ताम् इत्युक्ते कर्मपदम्
अतः ताम् इदानीं बृहन्नला इति स्थाने तत्र
बृहन्नलां
हा तां बृहन्नलां नय नय इति पद कीदृशं
लोट् लकारे मध्यमपुरुषे
अस्तु अतः तत्र कर्तृपदं किं
कर्तृपदं करोतु
न न न तत्र तां बृहन्नलां नय इति भवती उक्तवती सत्यमेव तत्र मध्यमपुरुषरूपम् अस्ति नय नयतु इति
नयतु नयतात् नयतां नयतु
इति प्रथमपुरुष किन्तु मध्यमपुरुषरूपम् अस्ति नय इति मध्यमपुरुषवचनं किम्
एकवचनं
एकवचनम् अस्तु अतः भवती जानाति एव तत्र कर्तृपदं किम् इति किं त्वं त्वमेव खलु
अत्र बृहन्नला या अस्ति पूर्वं सा अर्जुनस्य सारथी आसीत् तां नय इति सैरेन्द्री वदति न महोदय
सैरेन्द्री वदति सत्यं किन्तु तां नय इति अस्ति तां बृहन्नलां नय किन्तु तस्य पूर्वं कर्तृपदं स्थापयितुम् इच्छामश्चेत् किं भवति त्वं तां बृहन्नलां नय इति नय इति समीचीनं
इति ततः सा एव बृहन्नलां तत्र आनयति
तदनन्तरं तत्र वयं न जानीमः कं प्रति अथवा कां प्रति सा उक्तवती एतद् वाक्यं किन्तु तदनन्तरं किम् अभवत्
सा एव बृहन्नलां तत्र आनयति
सा एव गत्वा बृहन्नलां तत्र आनयति
आनयति
सा एव इत्युक्ते एव इति अर्थः कः अत्र
सा एव इत्युक्ते शी इस् द वन् शी ओन्लि अन्य कोऽपि न
अन्य कोऽपि तत्र बृहन्नलां न आनयति किन्तु सा एव गत्वा बृहन्नलां तत्र आनयति
यद्यपि सैरेन्द्री वदति अत्र बृहन्नला कथं वदामि बृहन्नला वदति
न बृहन्नला इदानीं तत्र नास्ति बृहन्नला तत्र नास्ति तत् न जानीमः तत्र कोऽपि आस्थाने अनेकाः सेवकाः सन्ति खलु अतः बृहन्नला कं प्रति वदति अथवा कां प्रति वदति इति अत्र न दत्तमस्ति किन्तु यं प्रति अथवा यां प्रति स उक्तवती सः अथवा सा न गतवान् अथवा गतवती किन्तु सैरेन्द्री एव बृहन्नलायाः आनयनं कृतवती सा स एव गत्वा बृहन्नलां तत्र आनयति
बृहन्नला वदति गीतं नृत्यं वाद्यं वा करिष्यामि कर्मपदम् अस्ति महोदय गीतं नृत्यं वाद्यं वा करिष्यामि कृ धातु करोति
तत्र कर्तृपदं
बृहन्नला वदति गीतं
बृहन्नला वदति अस्तु तत्र कर्तृपदं बृहन्नला इदानीं करिष्यामि इति
करिष्यामि गीतं नृत्यं वाद्यं वा करिष्यामि
तत्र कर्तृपदं
बृहन्नला
न अहम् इति यत् भवती वदति सत्यमेव किन्तु वाक्ये तदस्ति अहमिति सत्यं समीचीनं भगिनी अहं करिष्यामि तत्र वा इत्युक्ते तत्र गीतं वा करिष्यामि
वाद्यं वा करिष्यामि परन्तु सारथ्यं कथं करिष्यामि इति उत्तरः वदति
सारथ्यं कथं
करिष्यामि
सारथिः कथम् अहं भवितुम् अर्हामि अस्तु अग्रे इति बृहन्नला वदति
अनन्तरम् उत्तरः वदति गायकः नर्तकः च अनन्तरं भव इदानीं सारथिः भव इति गायकः नर्तकः च अनन्तरं
भव
त्वं
समीचीनं त्वं भव समीचीनं
भव
त्वं गायकः नर्तकः च अनन्तरं भव इदानीं मास्तु इदानीं किम् आवश्यकं इदानीं तु
सारथिः भव इति
त्वं सारथिः भव इति उत्तरः वदति समीचीनं भगिनि समीचीनं
गायकः नर्तकः अण्वल् प्रत्ययः अस्ति
हा सत्यं गायकः नर्तकः समीचीनं भगिनि अस्तु अग्रे गच्छामः तत्र नरेश् महोदय पठितुम् इच्छति वा महोदय
आं महोदय ततः बृहन्नला रथम् आरुह्य अश्वं प्रेरयति तस्मिन् समये बृहन्नला रथम् आरुह्य सा रथम् आरोहति अश्वं प्रेरयति
तत्र आरुह्य इति तत्र ल्यबन्तम् आ इति उपसर्गः अस्ति इति कृत्वा ल्यबन्तम् आरुह्य आरोहति आरुह्य इति तत्र अश्वं प्रेरयति तत्र अश्वं प्रेरयति इत्युक्ते अग्रे गच्छतु इति तादृशप्रेरणां कारयति अग्रे
किन्तु युद्धभूमौ विशालं कुरु सैन्यं दृष्ट्वा उत्तरः हतोत्साहः भवति तौ युद्धभूमौ गच्छतः परन्तु उत्तरः तत्र कुरु सेना दृष्ट्वा
अस्तु तत्र एतत् दृष्ट्वा इति स्थाने पश्यति इति स्थापयामः तदनन्तरम् अपि अनन्तरम् इति अस्तु पश्यति कीदृशकुरुसैन्यम् अस्ति तत्
विशालं कुरुसैन्यं
हा विशालं तत्र अनेकाः जनाः सैनिकाः सन्ति तत्र तत्र विशालं कुरुसैन्यम् अस्ति कुत्र पश्यति एतत् सैन्यं
युद्धभूमौ
रणरङ्गे इति हा तत्र युद्धभूमौ भूमौ इति कीदृशप्रातिपदिकं किं तत्र
युद्धभूमि
भूमिः हा भूमिः भूमौ इति सप्तमी समीचीनं हा युद्धभूमौ विशालं कुरुसैन्यं पश्यति अथवा दृष्ट्वा इदानीं सः किं भवति
उत्तरः तु हतोत्साह भवति बिभति
हा तत्र हा अस्तु हा तत्र तत्र हतोत्साहः इति उत्साहः इत्युक्ते किं कर्तुम् इच्छा अस्ति उत्साहः इत्युक्ते एतत् कर्तुम् इच्छामि तत्र मम उत्साहः अस्ति
उत्साहः गच्छति
हा इदानीं तत्र उत्साहः हतः अस्ति यस्य उत्साहः हतः सः हतोत्साहः अतः तत्र हतोत्साहः भवति हतोत्साहः किं भवति वाक्ये उत्तर इति पदस्य विशेषणं भवति कीदृश उत्तरः सः हतोत्साहः उत्तरः तस्य उत्साहस्य नाशः अभवत् तादृश उत्तरः एषः इति हा गीताञ्जलि भगिनी वदतु भगिनि
महोदय हत उपसर्ग इव अत्र कार्यं करोति
न तत्र उपसर्ग इति नास्ति तत्र हत तत्र विशेषणम् अस्ति तत्र कीदृश उत्साहः हतोत्साहः इति हत उत्साहः इति सन्धि तत्र हतोत्साहः किन्तु तत्र अर्थः भिन्नः अस्ति तत्र उत्साहः इति विषयः नास्ति हत् उत्साहः इदानीं नास्ति इति विषयः नास्ति किन्तु यस्य उत्साहः हतः हतं यस्य उत्साहस्य नाशः अभवत् सः अतः तत्र कस्य उत्साहः आसीत् पूर्वं युद्धं कर्तुम् उत्तरस्य इदानीं तस्य उत्साहः अस्ति वा सैन्यं दृष्ट्वा नास्ति तस्य नाशम् अभवत् हतम् अभवत् तस्य उत्साहस्य अतः तत्र सः कीदृशः उत्तरः सः हतोत्साहः उत्तरः इति अतः सः
वदति मम पिता श्रीगर्तदेशं गतवान् अस्ति
मम पिता इत्युक्ते तत्र सः कः तत्र विराटराजस्य महाराजः तत्र क्षम्यतां विराटराजस्य इति न तत्र क्षम्यतां तत्र मम पिता इत्युक्ते मत्स्यदेशस्य महाराजः विराटः सः त्रिगर्तदेशं गतवान् अतः सः नास्ति अपि पाण्डवाः तत्र विशालसैन्यं सः तु विराटमहाराजः एकाकी न गतवान् खलु तत्र युद्धार्थं सः सैन्येन सह तत्र युद्धार्थं सः गतवान्
सर्वे अपि गान्
सर्वामपि
सेनां सः नीतवान् अस्ति
हा तत्र सः इति अस्ति नीतवान् इति अस्ति तत्र सः नीतवान् अस्ति किं नीतवान् सः
मत्स्यदेशस्य महाराजः
सः इति अस्तु किन्तु सः किं नीतवान्
सेनां नीतवान्
सेनां नीतवान् सः सः नयति, किं नयति, सेनां नयति, इदानीं सेनां नीतवान् इति, नीतवान् इति सः अस्ति अतः नीतवान्, सा अस्ति चेत् तत्र नीतवान् इति स्थाने किं भवति,
नीतवती,
नीतवती इति. समीचीनं, हा समीचीनं महोदय. हा अग्रे तत्र सर्वां, सर्वाम् इति अपि विशेषणम् अस्ति, सर्वां सेनाम् इति विशेषणं, सर्वाम् अपि सेनां, तत्र सर्वां सेनाम् इति न, तत्र अपि तस्य महत्त्वम् अस्ति इत्युक्ते तत्र अत्र युद्धार्थम् अन्य कोऽपि नास्ति, सम्पूर्णा सैन्या या अस्ति तत् सा महाराजस्य, महाराजेन सह गता अस्ति, अतः अत्र, अतः तत्र सैनिकः एव न, कोऽपि सैनिकः नास्ति अत्र. अग्रे,
अहम् एकः बालः एतान् अस्त्र को विदान् प्रतिरोद्धुं न शक्नोमि बृहन्नले.
निवर्तस्व प्रत्यागच्छामः.
सो उत्तरः वदति, अहं तु युद्धं कर्तुं न शक्नोमि.
किमर्थं न शक्नोमि अहम्
अस्त्रकोविदान्,
न अहं किमर्थं युद्धं कर्तुं न शक्नोमि, अहं कीदृशम् अस्मि इति सः वदति.
अहं बालः
एकः एव बालः तत्र, अन्य कोऽपि नास्ति तत्र, अहम् एकः एव बालः अस्मि, अतः तत्र एकः एव बालः अस्मि अपि तत्र. किन्तु कौरवसैन्ये किं, के सन्ति तत्र?
विशालसेना अस्ति तत्र, दुर्योधनः, भीष्म, कर्णः,
द्रोणः, सर्वे सन्ति इति कृत्वा, अतः तत्र ते तु किं महारथिनः खलु तत्र, युद्धे तेषां कौशल्यम् अस्ति एव खलु, अतः तत्र एतान् कीदृश एते तत्र, एतान् इति कर्मपदम्, एतान् अस्त्रकोविदान्, तत्र प्रथमविभक्तिरूपं किं भवति,
एषः,
न एषः इति एकवचने, एतान् तु बहुवचने, अतः एते,
एतम्
इति एकवचने, अस्तु एतम् इति एकवचनरूपं, द्वितीयविभक्ति एकवचनरूपं किं भवति,
एतम् एते एतम् एते एतौ,
न एषः एषः एते एषः एते
एषौ एषः एतौ एते एतम् एतौ एतान्.
हा इदानीं तत्र प्रथमविभक्ति बहुवचनरूपं किं भवति, एते
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 एते अस्त्रकोविदाः.
हा अस्त्रकोविदाः, अस्त्रकोविदाः, एते अस्त्रकोविदाः ये सन्ति कुत्र, तत्र कौरवसैन्ये, तान् प्रतिरोद्धुं,
प्रतिरोद्धुं,
हा तत्र पराजय, तत्र
युद्धे
तैः सह युद्धं कर्तुम् अहं न शक्नोमि, तैः सह युद्धं कर्तुम् अहं न शक्नोमि. कीदृशः ते इत्युक्ते तत्र अस्त्रकोविदाः ते सर्वे, अस्त्रकोविदः, कोविदः इत्युक्ते जानाति इति, यस्य ज्ञानम् अस्ति, विद् इति तत्र ज्ञानम् इति विद्, वेदाः सन्ति खलु तत्र विद् इति धातु, विद् इति रूपमस्ति तत्र, कोविदः अस्त् कस्मिन् विषये, कोविदः अस्त्रकोविदः, अतः अस्त्रस्य ज्ञानं तेषाम् अस्ति इति कृत्वा, केवलं ज्ञानं न तत्र निपुणता अस्ति इति कृत्वा अस्त्रकोविदाः ते सन्ति, तान् प्रतिरोद्धुम् अहं न शक्नोमि, अहम् एकः एव बालः, अतः तत्र तादृश तत् कर्तुम् अहं न शक्नोमि. बृहन्नलेति किं भवति तत्र?
सम्बोधनं.
सम्बोधनं बृहन्नला बृहन्नले इति. निवर्तस्व. निवर्तस्व इति मध्यमपुरुष. तत्र लकारः कः? लोट् लकारः. निवर्तस्व. हा अस्तु इति. अस्तु समीचीनं महोदय.
महोदय कोविदः, महोदय एकः संशयः, कोविदः किमर्थं कोविदः का अत्र कोविदः अर्थः कः?
यः जानाति अस्त्र कोविदः.
विद्या जानाति.
निपुणः इति वक्तुं
शक्नुमः. निपुणः इति अर्थे तत्र अस्त्रस्य ज्ञानं तस्य अस्ति इति. सः अस्त्रकोविदः.
विद् जानाति इति अर्थः वा?
विद् इति तत्र ज्ञानम् इति. सत्यं.
किमर्थं कोविदः?
तादृशरूपम् अस्ति तत्र. यः जानाति इति कोविदः इति रूपम् अस्ति तत्र.
तत्र अस्त्रविद्या इति
अस्त्रविद्या अथवा अस्त्रस्य ज्ञानं तस्य अस्ति, अतः सः अस्त्रकोविदः. तत्र शास्त्रविद् इति अपि वयं दृष्टवन्तः खलु भगिनि. शास्त्रविद् इति तादृश तत्र विद्वान् विद्वांसः एतत् सर्वं तत्र विद् इति धातोः अनेकाः नामपदानि भवन्ति. एतदपि न न कः इति तत्र हा कः इति तत्र नास्ति. हा कः इति प्रश्नः इति तादृश अर्थः नास्ति. नरेश् महोदय प्रश्नः अस्ति वा? न
धन्यवादः. शस्त्र विधः अस्ति परन्तु को विधः कथम् अस्ति?
किं महोदय?
शस्त्रविदः अस्ति अत्र को विधः कथम् अस्ति?
तत्र शस्त्र तत्र नियमः अस्ति न वा इति न जानामि, किन्तु तत्र केवलं तत्र कोविदः, तत्र कोविदः इति पूर्वं तत्र किम् अस्त्रं वा शस्त्रं वा स्थापितुं शक्नुमः इति मन्ये महोदय. यद्यपि प्रसिद्धरूपं प्रायशः भवान् यद्वदति तत् प्रसिद्धरूपम् इति मन्ये, किन्तु तत्र अस्त्रकोविदः वा शस्त्रकोविदः इति स्थापितुं शक्नुमः इति मन्ये. तत्र केवलम् एकः एव रूपः रूपम् इति नास्ति खलु तत्र ज्ञानस्य. तत्र तत्र शास्त्रविद् अस्त्रविद् शास्त्रकोविदः तादृश अनेकः अनेकानि रूपाणि सन्ति महोदय.
धन्यवादः.
अतः अत्र एतत् रूपं स्वीकृतमस्ति तावदेव.
महोदय एकसंख्य प्रतिरोधु क्रिया दातु
रोद्धुं तत्र
तुमन् प्रत्यय परन्तु रोद्धुम् इति
रुद् दातु इति मन्ये. प्र उपसर्गः. हा प्रतिरुद् इति खलु. हा प्रतिरुद्धिति भवति. हा
ओके धन्यवादः.
प्रतिरोद्धुम् इत्युक्ते तत्र तेषां स्तम्भनम् अथवा तत्र ते अग्रे गन्तुम् इच्छन्ति, अहं तेषां प्रतिरोद्धुं न शक्नोमि, ते अग्रे आगच्छन्ति इति. अस्तु तत्र प्रतिरुद्ध इति. अस्तु अग्रे गच्छामः. तर्हि तत्र किम् इदानीम् एतावत् अस्तु, शोभा भगिनी पठितुम् इच्छति वा अग्रे?
आम् महोदय. बृहन्नला वदति, स्त्रीणां पुरतः बहु जल्पसि, इदानीं कथं युद्धं न करोषि? यदि न युध्यसे तर्हि सर्वे प्रहसिष्यन्ति इति. ये अग्रे पठामि वा?
न न, तत्र किञ्चित् वदतु अपि भगिनि.
बृहन्नला अधुना वदति, स्त्रीणां पुरतः बहु जल्पसि, स्त्रीणां पुरतः बहु जल्पनं करोषि.
स्त्रीणाम् इति तत्र किम् अस्ति, तत्र विभक्ति का?
स्त्रीणाम् इति षष्ठीविभक्ति बहुवचने.
स्त्रीणां
पुरतः, तेषां पुरतः सः उत्तरः बहु,
तासां पुरतः,
तासां पुरतः उत्तरः बहु किमपि जल्पनम् अकरोत् पूर्वं.
सः उक्तवान्, अहम्
उक्तवान्
दुर्योधनं भीष्मं सर्वम् अहं तत्र
विद्राव्य शौर्यस्य विषये इति मन्ये कृतवान्. अतः अर्जुनः बृहन्नला पृच्छति, इदानीं कथं युद्धं न करोषि? उक्त्वानन्तरं युद्धं न करोषि चेत् यदि न युध्यसे, तत्र आत्मनेपदी मध्यमपुरुष एकवचने, न युध्यसे तर्हि, यदि तर्हि अव्ययपदानि तत्र, सर्वे हसिष्यन्ति. हसिष्यन्ति इति भविष्यत्काले प्र उपसर्गपूर्वकः. जल्पनं कृत्वा अनन्तरं न साधयति चेत् सर्वे हसिष्यन्ति त्वां कृते,
भवतः कृते,
भवतः कृते,
तव कृते,
तव कृते, क्षम्यतां, तव कृते
हास्यं करोति, हास्यं कुर्वन्ति, हास्यं कुर्वन्ति. तत्र युध्यसे इति तत्र प्रायशः तदपि भविष्यत्कालरूपं युध्यसे इति,
न युध्यसे
अथवा न न न
तत्र
न न तत्र प्रायशः लट्लकारः एव,
लट्लकारः एव इति मन्ये महोदय. करिष्ये, कुरुषे इति अस्ति, मध्यमपुरुषे लट्लकारः एव कुरुषे इति, करोषि अपि कुरुषे उभयपदे अस्ति तत्र महोदय.
अतः तत्र युध्यसे,
युध्यसे
सर्वे प्रहसिष्यन्ति. तत्र एकः तत्र अंशः अपि तत्र समीचीनम् एव इति मन्ये. तत्र यद् बृहन्नला इदानीं तत्र अर्जुनः एव यत् वदति, एतदेव अग्रे गत्वा श्रीकृष्णः अर्जुनस्य अर्जुनं प्रति अपि वदति खलु.
आं महोदय.
किन्तु हा अस्तु अग्रे भगिनि.
तदेव अहम् अपि तत्र ते जनाः एव सन्ति,
भीष्म
अपि दायादः, ते एव सन्ति तत्रापि अस्मिन् युद्धे अपि. किन्तु अस्मिन् समये तु अर्जुनः किमपि न,
तत्र खिन्नः नासीत्,
खिन्नः न आसीत्. ये केऽपि हसन्तु, मम चिन्ता नास्ति इति उक्त्वा उत्तरः रथात् अवतीर्य अधावत्. तत्र उत्तरः अवदत्, तस्य चिन्ता तु नास्ति ये हसन्ति न हसन्ति इति.
तत्र अन्ये जनाः हसन्ति वा, अहं तस्य चिन्तनं न करोमि, मम चिन्ता नास्ति तस्मिन् विषये, मम चिन्ता
नास्ति. हसन्तु इति लोट्लकारे बहुवचने,
ते हसन्तु, तत् भवतु, तत्
भवतु,
तत् भवतु, किन्तु मम चिन्ता नास्ति.
आम्, मम चिन्ता नास्ति इति उक्त्वा त्वान्तपदम् उत्तरः रथात् पञ्चमी अवतीर्य, अवतरति इत्यस्य लेबन्तरूतम् अवतीर्य अधावत् लङ् रूपं धावति इति. बृहन्नला तु एषः धर्मः न. क्षत्रियः कदापि पलायनं न करोति. युद्धमेव
धर्मः इत्युक्ते पलायनं यत् कृतवान् उत्तरस्य पलायनं दृष्ट्वा बृहन्नला वदति.
एषः
क्षत्रियधर्मः.
क्षत्रियधर्मः नास्ति. कदापि पलायनं क्षत्रियधर्मः नास्ति. युद्धार्थं सिद्धः अभवत् युद्धं करणीयम्.
युद्धस्य आवश्यकता अस्ति चेत् युद्धं कर्तुं सिद्धः भवितव्यं क्षत्रियस्य.
तत्र तु सिद्धः अपि आसीत् किन्तु
इदानीं नास्ति.
युद्धमेव श्रेयः न पलायनम् इति तम् अनुधावति.
तत्र
अनुधावति इत्युक्ते यः धावितः अस्ति तस्य तं स्थगयति अथवा
तत्र अनु इति उपसर्गः. तत् किं सूचयति इत्युक्ते समानक्रिया. तत्र एकः धावति अन्यः अपि तस्य
अनुसरति.
तत्र अनु इत्युक्ते समानक्रिया. एकः धावति तदनन्तरम् अन्यः अपि स एव क्रियां करोति. तत्र सः अपि धावति सः अनुधावति इति.
अस्मिन् उदाहरणे किल महोदय तत्र अनुरोधम् इति अपि आगतं पूर्वस्मिन् वर्गे. तत्र रोधम् इत्यस्य अनुरोधं. तत्र तु निरोधं विरोधम् इति अस्ति किल महोदय. अनुरोधम् इत्युक्ते तत्र
उत्तमप्रश्नः भगिनी, द्रष्टव्यमस्ति.
तत्र न मम प्रश्नः तु तत्र तु समान अनुसरति इति नास्ति किल.
साधारणतया तदेव अस्ति. अनुरोधति इति अस्ति वा अत्र तु
कथायां? कथायाम् आसीत् महोदय अनुरोधं कृत् अनुरोधपूर्वकः.
सत्यं भगिनी, समीचीनं. तत्र तु प्रायशः सत्यं भगिनी, सत्यं. इदानीं स्मरामि तत्र कथायां तत्र अनुरोधपूर्वकं सः एव घटान् स्वीकृत्य अग्रे गतवान् इति खलु. तत्र पुत्रः तृतीयायाः पुत्रः
अनुरोधं कृत्वा.
तत्र अनु इति तत्र अर्थः भिन्न इति मन्ये. सत्यं भगिनि, तत् सत्यं. द्रष्टव्यम् अस्ति किन्तु यत् स्मरामि तत्र अनु इति तत्र अनुरोधः इति तत्र अनु इति एतादृश अर्थः तत्र नास्ति इति मन्ये. किन्तु उत्तमप्रश्नः अस्ति भगिनि, तत्रापि अनु इति अस्ति इति. अस्तु, समीचीनं. किन्तु अत्र तु अनु इत्युक्ते अनुधावति.
तस्य तेन सह धावति इति.
तम् अनुसरति इति. तत्र सः धावति, बृहन्नलापि उत्तरम् अनुसरति अपि धावति इति.
केशेषु गृहात् केशेषु गृह्णाति च तदा उत्तर. अस्तु, अग्रिम पठित्वा वदामि महोदय.
केशेषु गृह्णाति च इत्युक्ते तत्र
तस् केशेषु इति सप्तमीविभक्ति. उत्तरस्य
किमर्थं सप्तमी अस्ति
केशेषु? किमर्थं चेत् तस्य अङ्गस्य ग्रहणं भवति चेत् सप्तमी
भवति नियमः
पठितवन्तः महोदय.
अतः केशेषु
गृह्णाति च तदा उत्तरः वदति तुभ्यं 100 सुवर्णनाणकानि ददामि. अष्टमणीन् ददामि, उत्तमं रथं अश्वान् गजान् च ददामि, मां मुञ्च इति. तदा उत्तरः वदति तुभ्यं, तत्र चतुर्थी एकवचने, तुभ्यं शतं सुवर्णनाणकानि, शतं सुवर्णनाणकानि ददामि, बृहन्नलाम् अष्टमणीन् ददामि, उत्तमं रथं.
बृहन्नला इति अस्ति तत्र, बृहन्नला इति पदस्य चतुर्थी वदतु.
बृहन्नलायै,
हा बृहन्नलायै,
बृहन्नलायै उत्तरः एतान् सर्वान् दातुम् इच्छति. यतः
शतं सुवर्णनाणकानि अपि
अष्टमणीतमं रथं अश्वान् गजान् बहु किमपि दातुम् इच्छति, यतः तेन सः मुक्तः भवितुम् इच्छति.
इच्छति, हा, सः गृहीतः अस्ति बृहन्नलया, बृहन्नलया,
बृहन्नलया
गृहीतः अस्ति,
गृहीतः अस्ति, अतः तेन मोक्षं भवति, मुक्तः भवितुं
भवितुम् इच्छति, मुक्तः भवितुम् इच्छति. अतः सः वदति एतत् सर्वम् अहं
ददामि,
भवत्यै ददामि,
भवत्यै ददामि, मां मुञ्च,
मुञ्च,
मां मुञ्च इत्युक्ते
माम् इति तत्र विभक्ति का, मां
माम् इति द्वितीया,
हा कर्मपदं, कर्मपदम् एव
द्वितीया कर्मपदं,
हा हा,
मां मुञ्च इति.
समीचीनं भगिनि, हा धन्यवादः. अस्तु इति, हा मुञ्च इति तत्र मुञ्चात्
इति मध्यमपुरुषे एकवचनं,
त्वं, त्वं,
त्वं, मां, त्वं, मुञ्च.
समीचीनं भगिनि, त्वं, मां, मुञ्च, समीचीनम्
अस्ति. महोदय एकः प्रश्नः अस्ति, बृहन्नलात्तु एषः धर्मः न तु इत्युक्ते
एषः धर्मः न, यत् यत् उत्तरं करोति सः उत्तरस्य धर्मः न इत्युक्ते यत् सः करोति तद् न करणीयम्. तत्र युद्धात् पलायनं न करणीयम् इति तत्र एतत् निषिद्धः अस्ति इति सः वक्तुमिच्छति, सा वक्तुमिच्छति.
परन्तु बृहन्नलात्तु तु किमपि, बृहन्नलात्तु
इति शब्दं महोदय,
बृहन्नलात्तु,
ओ तु, तत्र अत्र किम् अस्ति, तत्र उत्तरः पलायनं करोति, सा तु न पलायनं न करोति, सा पलायनं न करोति, किन्तु सा किं करोति, सा पलायनं न करोति चेत् सा किं करोति, सा वदति एतत् मा करोतु इति सा वदति, अतः तत्र तु इति अस्ति. हा तु इत्युक्ते सा न पलायनं कृतवती, किन्तु तत्र एव स्थित्वा सा एतत् उक्तवती इति. तत्र प्रदर्शनार्थं सा, सः तु निपुणः, एष पश्यतु, एषः तु एतत् अभवत् इति, तत्र प्रदर्शनार्थं. बृहन्नला तु तत्र सा तु न गतवती, पलायनं न कृतवती, सा तत्र एव स्थित्वा सा उक्तवती, एतत् उक्तवती इति. समीचीनं
तु अत्र बट् इति अर्थः भवति वा,
तादृश सत्यं, सा न पलायनं न कृतवती, किन्तु सा अत्र तत्र एव स्थित्वा सा उक्तवती इति. समीचीनं महोदय, अस्तु. अग्रे वंशीसुधा भगिनी पठितुम् इच्छति वा भगिनि?
आं महोदय, पठामि. अस्तु, मास्तु चिन्ता, आवाम् अग्रे गच्छाव, आवाम् इत्युक्ते उत्तमपुरुषे मध्यमरूपं, मध्यमपुरुषरूपं मध्य द्विवचने
उत्तमपुरुषः
उत्तमपुरुष द्विवचने अस्ति महोदय.
गच्छाव इति लकारः कः?
गच्छाव इति लोट् लकारः भवति.
लोट् लकारः, समीचीनं.
लोट् लकारः उत्तमपुरुषे द्विवचनम् अस्ति. आवाम् अग्रे गच्छाव. त्वं मम सारथिः भव. अर्जुनः न उत्तरः वदति, अस्तु अस्तु क्षम्यतां, बृहन्नला वदति आवाम् अग्रे गच्छावः, अग्रे गच्छावः. त्वं मम सारथिः भव. बृहन्नला वदति त्वं मम सारथि भव इति लोट् लकार एकवचने अस्ति महोदय. त्वं भव, अस्तु. अहं युद्धं करिष्यामि इति उक्त्वा बृहन्नला तं रथम् आरोपयति. बृहन्नला वदति अहमेव युद्धं करोमि, करिष्यामि. त्वं सारथी भव, सारथिः भव
इति सः वदति. इदानीं तत्र तम् इति इत्युक्ते कम्?
त्वम् इत्युक्ते ओ अस्तु इति उक्त्वा बृहन्नला तं रथम्, तम् इत्युक्ते उत्तरः महोदय,
आरोपयति. आरोपयति इत्युक्ते
आरोहयति वा आरोपयति?
आरोपयति, तत्र पठति पाठयति, तत्र तस्य आरोहणं कारयति. रथस्य उपरि
उपरि गच्छति वा? तत्रैव
रथस्य उपरि सः गच्छति, तत् कारयति, सा कारयति. तत्र उत्तरस्य रतो रतारोहणं कारयति. अतः आरोपयति.
इत्युक्ते अर्जुनः इदानीं युद्धं करोति, उत्तरः रथं चालयति.
चालयति, सत्यं. इति सत्यम्. अग्रे
अग्रे अग्रे
पठतु.
ततः तौ श्मशानभूमिं गच्छतः. युद्धभूमितः तौ द्वौ श्मशानभूमिं गच्छतः. गच्छतः इति
तत्र भूमितः इति स्थाने तत्र षष्टिविभक्तिरूपं किं भवति?
भूमि
षष्टि न, तत्र षष्टि न, क्षम्यतां. तत्र किम् आवश्यकम् अस्ति? तत्र भूमितः इति स्थाने विभक्ति, का विभक्ति अपेक्षिता? अत्र
भूमात् इति भवति
वा? न न, भूमिः इति, भूमिः इति स्त्रीलिङ्गे अस्ति, मति शब्दवत्. अत्र पञ्चमी अपेक्षितं,
भूमेः. श्मशात् भूमेः गच्छतः इति
भवति. न न, युद्धभूमेः
युद्धभूमेः
श्मशानभूमिं श्मशानभूमिं
गच्छतः.
गच्छतः, समीचीनं. ततः इत्युक्ते ततः युद्धभूमेः तौ श्मशानभूमिं गच्छतः.
तत्र शमीवृक्षे पाण्डवैः पूर्वं रक्षितानि आयुधानि गृह्णीतः. तत्र शमीवृक्षे इत्युक्ते सप्तमी विभक्ति अस्ति महोदय. शमीवृक्षे स्थापितम् अस्ति पाण्डवैः. पाण्डवैः तत्र तत्र तृतीयबहुवचने अस्ति, तृतीयविभक्तौ बहुवचने अस्ति महोदय. पाण्डवैः पूर्वं रक्षितानि, रक्षित् क्रियापदमस्ति, आयुधानि, रक्षितानि आयुधानि, तत्र विशेषणविशेषभावः अस्ति महोदय. गृहीतः,
गृह्णीतः,
गृह्णीतः, क्षम्यतां,
तत्र गृह्णीतः इति कीदृशपदमस्ति तत्र?
तत्र त प्रत्ययः अस्ति महोदय, कर्मणि रूपमस्ति. पाण्डवैः गृह्णीतः इति
न, अत्र गच्छतः इति तत्र क्रियापदमस्ति भगिनि, अतः एव अहं पृष्टवान्.
ओ अस्तु, तत्र
तत्र तौ, तत्र सः, सः तौ ते इति द्विवचने अस्ति खलु, अतः तत्र किञ्चित् क्लेशः भवति. तत्र पठितः इति तादृश रूपम् इति
कर्मणि रूपमस्ति न कृते पाण्डवैः गृह्णीतः. तत्र
न, पाण्डवैः गृह्णीतः नास्ति इति. तत्र किं कृतवन्तः तत्र? अस्तु, तत्र भगिनि तत्र पश्यतु, तत्र तौ इत्युक्ते कौ? तत्र
उत्तरः, उत्तरः अपि च
बृहन्नला अपि उत्तरः खलु.
तौ
तौ गच्छतः तौ गच्छतः श्मशानभूमिं गच्छतः तत्र किं कुरुतः तौ गृणीतः तौ गृणीतः किं गृणीतः इदानीं
रक्षितानि आयुधानि
रक्षितानि आयुधानि गृणीतः कीदृशान् रक्षितानि आयुधानि तस्मिन् विषये किमपि वक्तुमिच्छामश्चेत् किं भवति
तत्र
पूर्वं रक्षितानि अपि पाण्डवैः पूर्वं रक्षितानि आयुधानि इति तत्र गृह्णीतः इति तत्र ममपि प्रथमवारे तत्र अहं चिन्तितवान् अस्तु तत्र तत्र पठितः इति रूपम् अस्ति इति किन्तु तत् क्रियापदम् अस्ति हा अतः क्लेशः भवति इति हा अस्तु भगिनि समीचीनम् अग्रे
तदा उत्तरः जिज्ञासया को भवान् इति बृहन्नलां पृच्छति तदा उत्तरः संशयः जातः जिज्ञासा जातः भवान् कः को भवान् इत्युक्ते कः भवान् भवान् कः इत्युक्ते तत्र सन्धिः भवति महोदय कः भवान् इति बृहन्नलां पृच्छति बृहन्नला अर्जुनं प्रति क्षमितं
उत्तरः बृहन्नलां
बृहन्नलां
पृच्छति जिज्ञासया इति तत्र तृतीया भावतृतीया माध्यमं भवति तृतीया विभक्ति भावः भवति माध्यमं भवति अत्र भावः सन्तोषेण अत्र जिज्ञासा जिज्ञासया ज्ञातुम् इच्छा अस्ति अतः जिज्ञासया हा तदेव अहमपि पश्यामि
हा
अस्तु उमा भगिनी नमस्कारः भगिनि
Okay, I didn't want to poke my nose. Namaskarah, namo namah.
Namaskarah, Bhagini.
Gita Sopanam Prathama Bhagam Athva Dvitiya Bhagam Idane
Prathama Bhagah, page 186, Bhagini.
Dhanyavadah.
Namaskarah, Bhagini. Aneka dina anantaram bhavati agachati. Samichinam
shantosham. Adhya ham try karomi.
Astu, Bhagini. Chintam astu. Shunotu. Dashani misha eva idane
maha. Avashishtam, ha? Okay.
अस्तु भगिनि नमस्कारः अस्तु वंशिष्यतु भगिनि अग्रे गच्छतु
अस्तु महोदय बृहन्नला अहम् अर्जुनः युधिष्ठिरः भीमः नकुलः सहदेवश्चापि तव पितुः आश्रिताः एव सन्ति इति वदति अर्जुनः बृहन्नलां वदति अहम् अर्जुनः युधिष्ठिरः भीमः
अहम् अर्जुनः तदनन्तरं
युधिष्ठिरः भीमः नकुलः सहदेवश्चापि तव पितुः आश्रिताः एव सन्ति तत्र युधिष्ठिरः भीमः नकुलः सहदेवश्च च अपि तव पितुः पितुः षष्टि विभक्तौ अस्ति महोदय
तव इति षष्टि पितुः अपि षष्टि
तव पितुः आश्रिताः एव सन्ति
इत्युक्ते तत्र पित्रोः आश्रयं स्वीकृतवन्तः ते इति
ते स्वीकृतवन्तः तत्र रूपम् आश्रिताः
आश्रितः तत्र कर्तृत्वे आश्रितः
तदा उत्तरः धैर्यं प्राप्नोति तदा
एतत् श्रुत्वा उत्तरः धैर्यम् उत्तरस्य धैर्यस्य वर्धनं भवति
वर्तते महोदय ततः प्रवृत्ते युद्धे अर्जुनः भीष्मद्रोणकर्णादिसहितान् कौरवान् पराजित्य विराटराजस्य गोधनं रक्षति ततः ततः इत्युक्ते तत्र तदनन्तरं प्रवृत्ते किं प्रवृत्ते युद्धे तत्र प्रवृत्ते युद्धे इत्युक्ते किं
तत्र युद्धं यत् घटना अभवत् तत्र घटना यद् यद् अभवत् युद्धम् अभवत् यत् यत् युद्धम् अभवत् अथवा यत् युद्धं प्रवृद्धं तस्मिन् प्रवृद्धे युद्धे
अस्तु अर्जुनः भीष्मद्रोणकर्णादिसहितान् ते सर्वे
तत्र कीदृशः कौरवान् तत्र तत्र पराजित्यति पराजयति इति स्वीकरोतु तत्र अर्जुनः पराजयति
आम् महोदय, ते सर्वे युद्धं कुर्वन्ति, अर्जुनः भीष्मद्रोणकर्णादिसहितान् अर्जुनः क्षम्यताम् अर्जुन एव भीष्मद्रोणकर्णादिसहितान् तान् प्रति
तत्र किन्तु भगिनि तत्र एतत् करोतु, तत्र पराजित्य अर्जुनः पराजित्य कान् पराजित्य?
ओ अस्तु, प्रश्नं पृच्छामि, अस्तु कः युद्धं कृतवान्? अर्जुनः युद्धं कृतवान्। कान् पराजितवान्? पराजितवान् भीष्मद्रोणकर्णः।
तत्र प्रथमतया कौरवान् पराजितवान्, कौरवान् पराजित्य।
आम् महोदय, अत्र कान् पराजितवान्? कौरवान् पराजितवान्, अस्तु।
इदानीं कीदृशान् कौरवान्?
ओ अस्तु महोदय, अन्वयं कृतवान्।
तत्र कीदृशं, तत्र कौरवान् तत्र सामान्यकौरवान् वा अथवा तत्र किमपि विशेषम् अस्ति वा? अतः
कीदृशकौरवान् इत्युक्ते भीष्मद्रोणकर्णादिसहितान् कौरवान्।
तत्र कौरवान् मध्ये कौरवेषु तत्र केवलं साधारणः कौरवाः इति न, किन्तु तेषु भीष्मः अस्ति, द्रोणः अस्ति, कर्णाः अस्ति, अन्ये अपि सन्ति इति कृत्वा भीष्मद्रोणकर्णादिसहितान् कौरवान् इति तान् पराजित्य।
तत्र रक्षति इति क्रियापदमपि अस्ति महोदय, कं रक्षति इत्युक्ते गोधनं रक्षति। कीदृशगोधनं रक्षति इत्युक्ते विराटराजस्य गोधनं
रक्षति। समीचीनं भगिनि, अतः तत्र पराजित्य विराटराजस्य गोधनं रक्षति। समीचीनम्, अग्रे।
तावता पाण्डवानाम् अज्ञातवासः अपि समाप्तः भवति। तावता इत्युक्ते तस्मिन् काले एव,
अस्मिन् एव समये
पाण्डवानाम् अज्ञातवासं अपि समाप्तः भवति।
तावत् इत्युक्ते तस्य पूर्वं, तस्य किञ्चित् पूर्वं, तावता तत् बै द टैम् इति, तावता
पाण्डवानाम् इति षष्ठीविभक्तौ बहुवचने अस्ति महोदय, अज्ञातवासः अपि समाप्तः भवति।
तत्र समाप्तः इति किमर्थं?
समाप्तः किमर्थम् इत्युक्ते अहं
अस्तु, तत्र क्रियापदं किमस्ति तस्मिन् वाक्ये? अस्मिन् वाक्ये भवति। कर्तृपदं?
कर्तृपदं पाण्डवानाम् अज्ञातवासः, कर्तृपदं किम् अस्ति तत्र? पाण्डवस्य पाण्डवानां समाप्तः भवति वा?
अज्ञातवासः भवति, अज्ञातवासः भवति। कीदृशः अज्ञातवासः? समाप्तः अज्ञातवासः। अतः अज्ञातवासः समाप्तः भवति। प्रथमविभक्ति वा भवति इति अकर्मकधातुः। तत्र रामः उत्तमः अस्ति अथवा उत्तमः रामः अस्ति, तत्र रामः उत्तमः अस्ति इति तादृशरूपम् अत्र अज्ञातवासः समाप्तः
भवति।
विशेषणमस्ति, सत्यं, विशेषणमस्ति भगिनि, अतः एव तत्र समाप्तः इति अस्ति।
अतः प्रश्नं कथं करणीयम् इत्युक्ते कः भवति वा? अज्ञातवासः भवति। कीदृश अज्ञातवासः इत्युक्ते समाप्तः अज्ञातवासः,
अज्ञातवासः भवति। कस्य
कस्य
केषाम्
अज्ञातवासः समाप्तः इत्युक्ते पाण्डवानाम् अज्ञातवासः समाप्तः।
समीचीनं भगिनि, तावदेव समीचीनम्, अस्तु अग्रे।
विराटराजः स्वपुत्र्याम् उत्तरायाः स्वपुत्र्याः उत्तरायाः विवाहम् अर्जुनस्य पुत्रेण अभिमन्युना सह कारयति। विराटराजः स्वपुत्र्याः इत्युक्ते विराटराजस्य पुत्री उत्तरायाः विवाहम् अर्जुनस्य पुत्रेण सह अभिमन्युना सह कारयति।
तत्र अभिमन्युना इति विभक्ति का? तत्र
तृतीयविभक्ति, सः प्रयोजनेन तृतीयविभक्ति उपयोगं
करणीयमस्ति। समीचीनं,
अर्जुनस्य पुत्रेण तत्र अस्तु कारयति इति तत्र क्रियापदम् अस्ति महोदय. किं कारयति इत्युक्ते विराटराजः
कर्तृपदं विराटराजः कारयति. किं कारयति?
विराटराजः विवाहं कारयति.
हा समीचीनं. विवाहः विवाहं कारयति. कस्य अथवा कस्याः विवाहं कारयति?
कस्याः विवाहं कारयति इत्युक्ते स्वपुत्र्याः विवाहं कारयति. केन सह कारयति इत्युक्ते अर्जुनस्य पुत्रेण सह अभिमन्युना सह कारयति
इति. समीचीनं भगिनि. हा अतः तत्र बहु किमपि अस्ति खलु. तत्र विराटराजः प्रथमविभक्ति, विवाहम् इति द्वितीयविभक्ति, अभिमन्युना पुत्रेण तृतीयविभक्ति, हा अपि उत्तरायाः स्वपुत्र्याः षष्टिविभक्ति. अस्तु अतः केवलं तत्र किं तत्र पञ्चमी इति नास्ति, अपि सप्तमी नास्ति. सप्तमी तु सुलभतया स्थापयितुं शक्नुमः. तत्र मत्स्यदेशे सः एतत् सर्वं कारयति इति. हा इति. अस्तु समीचीनं भगिनि. अस्तु इदानीं समयः अपि जातः, किन्तु सन्तोषः अस्ति यतः कथां पूर्णतया वयं पठितवन्तः. तत्तु समीचीनम् एव अस्ति. अग्रिमे वर्गे तत्र कथायाः विषये अनेकाः प्रश्नाः सन्ति, तदपि तां प्रश्नान् अपि अग्रिमे वर्गे पठित्वा अग्रे गन्तुं शक्नुमः इति मन्ये. अस्तु अन्यप्रश्नः अस्ति वा
महोदय? तत्र शमीवृक्षे पाण्डवैः पूर्वं रक्षितानि आयुधानि गृह्णीतः. तत्र पाण्डवैः इति कर्तृपदमस्ति, तत्र कर्मपदं किम् अस्ति महोदय? कर्मणि वाक्ये तत्र
तत्र रक्षितानि, ते रक्षन्ति पाण्डवाः पूर्वम् आयुधानि रक्षन्ति.
ओ अस्तु,
रक्षन्ति
तत्र.
अतः किन्तु तत् तत् भिन्नम् अस्ति. तत्र इदानीं तत्र क्रियापदं तु तत्र पाण्डवैः स्थापितम् अस्ति, तत् कर्मणि प्रयोगः अस्ति, किन्तु अस्मिन् वाक्ये कर्मणि नास्ति. तौ गृह्णीतः इति कर्तृरूपमेव अस्ति तत्र.
परन्तु त प्रत्यये अपि रूपं समानं भवति अहं चिन्तयामि.
हा सत्यं सत्यम्. अतः एव मम प्रश्नः आसीत्. अतः एव मम प्रश्नः, तत् किम् अस्ति, तत् तत् क्रियापदं वा नामपदं वा इति.
आम् महोदय, तर्हि सम्यक्. द्वयोः रूपम् अपि सम्यक् एव.
सम्यक्, किन्तु तत्र रूपं सम्यक् एव, किन्तु अर्थ तत्र अर्थस्य
अन्वयः भिन्नः भवति.
न भवति अत्र तावदेव, किन्तु रूपस्य अभिज्ञानं तत् समीचीनमेव, तत्र तदपि भवितुम् अर्हति. सत्यम्. अस्तु अन्यप्रश्न कोऽपि अस्ति वा?
गृहीतः
गृहीतः इति अस्ति भगिनि. गृहीतः इति अस्ति, गृहीतः इति अस्ति, तत्र भवितुम् अर्हति. किन्तु तत्र वयं चिन्तयितुं शक्नुमः, तत्र णकारः अस्ति वा, मुद्रणदोषः अस्ति वा, तत्र गृहीतः इति रूपं भवेत् वा इति. हा किन्तु तत्र गृह्णीतः इति एव क्रियापदरूपं, तदेव समीचीनम् इति. अस्तु अस्तु, तर्हि तत्र किम् अस्तु, तर्हि कः वक्तुम् इच्छति? तत्र मधुसूदन महोदय, तत्र भवान् तत्र अन्ते तत्र प्रार्थनारूपेण अथवा शान्तिमन्त्रं किमपि वदामः, भवान् कर्तुम् इच्छति वा अद्य?
ॐ शान्ति शान्ति शान्तिः.
धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः सर्वेभ्यो नमः.